दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्त प्रतिरन्तायुः सहस्राक्षेण शतशारदेन सतायुषा हविषाः आर्षमेनं शतं यथेमं शरधूनयातिन्द्रो विश्वस्य दुरितस्य पारम्
अथ चतुर्वेदोक्त आशीर्वचनम् अथ चतुर्वेदोक्त आशीर्वचनम् देवदेवोत्तमदेवता सार्वभौमा अखिलाण्डकोटि ब्रह्माण्डनायक ऋषिगणवन्द्य सच्चिदानन्दात्मन् ऋग्वेदप्रिय ऋग्वेदसेवाम् अवधारय
मामामतेयो जुजुर्वान्दसमे युगे अपामर्थ्यं यतीनां ब्रह्मा भवति सारथिः वाजे वत वाजिनो नो धने सुभिप्रा अमृतारितज्ञाः अस्य मद्भक्तिवत मादयध्वन् तृप्ताया तपतिभिर्ते वया